इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् तस्य सर्वकारः सम्पूर्णतया प्रथमं भारतम् इति आदर्शवाक्येन पथप्रदर्शितः अस्ति, अपि च भ्रष्टाचारं विरुध्य शून्य सहिष्णुतायाः तस्य नीतयः सद्यः जातेषु लोकसभानिर्वाचनेषु जनैः समर्थन प्राप्ताः सन्ति। सः अवदत् यत् तस्य सर्वकारेण तुष्टीकरणं विना सर्वेभ्यः न्यायस्य नीतिः स्वीकृता अस्ति। श्रीमोदिना लोकसभायां द्वयोः सदनयोः संयुक्त सभायां राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः धन्यवाद प्रस्तावस्य उत्तरं प्रयच्छता ह्यः एवम् उक्तम्। विपक्षम् आलक्ष्य प्रधानमन्त्रिणा उक्तं यत् सः तेषां दुःखम् अवगन्तुं शक्नोति, यतः मुधा सूचना प्रसारणं कृत्वापि लोकसभानिर्वाचनेषु विपक्षः पराभूतः। श्रीमोदी महानिर्वाचनेषु परिपक्वतां प्रज्ञां च प्रदर्शितुं देशवासिनः श्लाघिताः। सः अवदत् यत् तस्य जनाः तस्य सर्वकारस्य नीतिषु अभिप्रायेषु समर्पणे च विश्वसन्ति, अतः एव ते तृतीयवारं राष्ट्रिय लोकतान्त्रिक संयुतिं शासनाधिरूढं कर्तुं मतदानं कृतवन्तः। श्रीमोदी उक्तवान् यत् सबका साथ सबका विकास इति मन्त्रेण सह तस्य सर्वकारः कार्यरतः अस्ति। यदा प्रधानमन्त्री सदने अभिभाषते स्म तदा विपक्षस्य सांसदाः विभिन्न विषयान् अधिकृत्य विरोध प्रदर्शनं कृतवन्तः। सभापतिः ओम बिरला विपक्षिदलानाम् आचरणम् अभिलक्ष्य खिन्नतां प्रकटयन् सदने व्यवस्थां स्थापयितुम् आग्रहीतवान्, परन्तु ते यथावत् कोलाहलं कृत्वा सदनस्य कार्यजातं पौनः पुन्येन प्रबाधितवन्तः। प्रधानमन्त्री ह्यः राष्ट्रिय लोकतान्त्रिक संयुतेः सांसदान् संसदः नियमानाम् अनुपालनाय संसदीय लोकतन्त्रस्य सिद्धान्तानां स्थापनाय अनुकूलाचरणस्य प्रदर्शनाय च निवेदितवान्। श्रीमोदी गतप्रातः नवदिल्ल्यां एनडीए संयुतेः उपवेशनं सम्बोधयन् एवम् उक्तवान्। उपवेशनानन्तरं वार्ताहरान् सम्बोधयन् संसदीय कार्यमन्त्री किरेण रिजिजुः सूचितवान् यत् प्रधानमन्त्री सर्वेभ्यः एनडीए सांसदेभ्यः उचिताचरणं प्रति मार्गदर्शनम् अपि कृतवान्। श्री रिजिजुः पुनः प्रोक्तवान् यत् प्रधानमन्त्री सबलं प्रत्यपादयत् यत् प्रत्येकं सांसदः देशसेवायै नागरिकैः चितः, यो हि केनापि दलेन सम्बद्धः वर्तते, राष्ट्रसेवा एव तस्य कर्तव्यमस्ति। प्रधानमन्त्री सांसदान् जल पर्यावरण सामाजिक क्षेत्रेषु विशेषज्ञतां प्राप्तुम् अपि प्रोत्साहितवान्। उत्तरप्रदेशस्य हाथरसे एकस्मिन् धार्मिक कार्यक्रमे दुरापन्नायां दुर्घटनायां ह्यः 16,100 जनाः मृत्युम् उपगताः, 18 अन्ये च गभीरतया व्रणिताः जाताः। एतदभिलक्ष्य मुख्यमन्त्रिणा योगिना आदित्यनाथेन गतदिने वरिष्ठाधिकारिभिः सह एकम् उपवेशनम् आकारितम्। दुर्घटनाम् अभिलक्ष्य प्रधानमन्त्रिणा राष्ट्रपतिना उपराष्ट्रपतिना च गभीरः शोकः प्रकाशितः, व्रणितानां शीघ्रस्वास्थ्यलाभाय कामना च कृता। कजाकिस्तानदेशस्य अध्यक्षतायां शंघाई सहयोग संघटन परिषदः चतुर्विंशतितमम् उपवेशनम् अस्य मासस्य चतुर्थे दिनांके समायोज्यते। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः अस्तानायां शंघाई सहयोग संघटन सम्मेलने भारतीय दलस्य नेतृत्वं करिष्यति। एतदर्थं सः ह्यः एव अस्थानां प्राप्तवान्। सम्मेलनेऽस्मिन् वैश्विकनेतारः संघटनस्य विगत विंशतिवर्षाणां क्रियाकलापानां विविधपक्षीय सहयोगस्थितेः च समीक्षां करिष्यन्ति। दक्षिणपश्चिमीया प्रावृट् आराष्ट्रं सम्प्राप्तः। भारतीयर्तुविज्ञानविभागेन संसूचितं यत् राजस्थान हरियाणा पंजाबतः वर्षत्व प्रभावः अग्रे प्रसरितः। असमराज्ये जलौघस्थितिः गभीरा अस्ति, येन हि 28 जनपदानाम् 11,00,000 जनाः जलौघप्रभाविताः जाताः। इति वार्ताः।